सुनता हूँ प्रवाचिका निधि तिवारी। अथ वार्ताः। प्रधानमंत्री नरेन्द्र मोदी शांतिपूर्णाय समृद्धाय सुव्यवस्थिताय सुरक्षिताय बिम्स्टेक क्षेत्राय भारतस्य प्रतिबद्धतायाः पुष्टिं कृतवान्। असौ आर्थिक सामाजिक विकासाय प्रबलरूपेण बिम्स्टेक इत्यस्य महत्वपूर्ण भूमिकामपि प्रख्यापितवान्। अवधेयं वर्तते यत् बिम्स्टेक इत्यस्य सदस्य देशानां विदेशमन्त्रिणः ह्यः प्रधानमन्त्रिणा नरेन्द्रमोदिना सह मेलनं कृतवन्तः। अत्रावसरे प्रधानमन्त्री सम्पर्क ऊर्जा व्यापार स्वास्थ्य कृषि विज्ञान सुरक्षा इत्यादिषु क्षेत्रेषु पारस्परिकं सहयोगं वर्धयितुं मन्त्रिभिः सह सार्थकीं चर्चाम् अपि कृतवान्। एतदनन्तरं प्रधानमन्त्री सितम्बरमासे आयोक्ष्यमाणाय बिम्स्टेक शिखरसम्मेलनाय थाईलैण्डदेशाय पूर्ण समर्थनमपि अभिव्यक्तवान्। प्रशासनेन प्रतिवर्षं जूनमासस्य पञ्चविंशे दिनांके संविधान हत्या दिवसत्वेन मानयितुं निर्णयः निर्णीतः। अस्मिन् एव दिवसे पूर्व प्रधानमन्त्रिणा इन्दिरा गांधिना पञ्चसप्तत्यधिक नवदशशततमे वर्षे देशे आपत्कालः उद्घोषितः आसीत्। प्रधानमन्त्री श्रीमोदी उक्तवान् यत् अयं दिवसः तासां घटनानां स्मरणं कारयिष्यते यदा भारतस्य संविधानस्य मर्दनं जातमासीत्। गृहमन्त्री अमितशाहः एकस्मिन् सामाजिक सन्देशपटले लिखितवान् यत् अस्य निर्णयस्योद्देशम् आपत्कालात् प्रभावितानां तेषां कोटिः जनानां भावनां सम्मानमिति अस्ति ये लोकतन्त्रस्य पुनरुज्जीवनाय संघर्षम् अकुर्वन्। अनेन निर्णयेन च देशस्य लोकतन्त्रस्य रक्षा भविष्यति। महाराष्ट्र विधानसभा परिषदः एकादशासनेषु ह्यः विहिते निर्वाचने भाजपेति दलस्य नेतृत्वयुतायाः संयुत्याः सर्वे नव प्रत्याशिनः विजयम् अधिगतवन्तः। महाविकास अगाडी दलस्य त्रिषु प्रत्याशिषु प्रत्याशिद्वयेन विजयः प्राप्तः। द्विवार्षिके एतस्मिन् निर्वाचने द्वादश प्रत्याशिनः रणे आसन्। आहत्य चतुःसप्तत्यधिक द्विशतं विधायकैः एतदर्थं मतदानं कृतम्। भाजपेति दलस्य पञ्च, अजीतपवारस्य एनसीपी दलस्य द्वौ, शिवसेनायाश्च द्वौ प्रत्याशिनौ विजयं प्राप्तवन्तः। नेपालदेशस्य प्रधानमन्त्री पुष्पकमलदहल प्रचण्डः ह्यः संसदि विश्वासमतं नैव अधिगतम्। संसदि सहयोगिना नेपालस्य कम्युनिस्ट पार्टीति दलेन यूनिफाइड मार्क्सिस्ट लेननिस्ट इत्यनेन तस्य प्रशासनात् समर्थनं प्रत्यावर्तितम्। प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य मुम्बय्याः गोरेगांव क्षेत्रस्य इंजीनियरिंग सर्विस कम्पनी इत्यस्मिन् प्रदर्शनी केन्द्रे चतुश्शतकोट्यधिक नवविंशति सहस्र रूप्यकाणां मार्ग रेल जलपोत स्थानक परियोजनाः राष्ट्राय समर्पयिष्यति, आधारशिलां च स्थापयिष्यति। सायं च श्रीमोदी भारतीय समाचार सेवा सचिवालये आईएनएस इत्यस्य स्तम्भस्यापि उद्घाटनं विधास्यति। सर्वोच्च न्यायालयेन ह्यः दिल्ल्याः मुख्यमन्त्रिणे आम आदमी पार्टीति दलस्य राष्ट्रिय संयोजकाय अरविन्द केजरीवालाय मद्यनीति प्रवञ्चनायाः धनशोधन प्रकरणे अल्पावधिक मुक्ति याचिका प्रदत्ता। अवधेयं वर्तते यत् प्रवर्तन निदेशालयेन मार्च मासस्य एकविंशति दिनांके केजरीवालः निगडितः आसीत् इति वार्ताः।